तृतीयोऽध्यायः ध्यानम् ओम् उद्यध्वानुसहस्रकान्तिमरुणक्षौमाम् शिरोमालिकाम् रक्तालिप्तपयोधराम् जपवटीम् विद्यामभीतिम् वरम् हस्ताब्जैर्दधतीम् त्रिनेत्रविलसद्भक्त्वारविन्दश्रियम् देवीम् बद्धहिमाम् सुरत्नमुकुटाम् वन्देरविन्दस्थिताम् ओम् ऋषिरुवाच निहन्यमानम् तत्सैन्यमवलोक्य महासुरः सेनानीश्चिक्षुरः कोपाद्ययो योद्धुमथाम्बिकाम् स देवीम् शरवर्षेण ववर्ष समरे सुरः यथा मेरुगिरे शृङ्गम् तोयवर्षेण तोयदः तस्य छित्त्वा ततो देवी लीलयैव शरोत्करान् जघानतुरगान् बाणैर्यन्तारम् चैव वाजिनाम् चिच्छेद च धनुः सद्यो ध्वजम् चातिसमुच्छ्रितम् विव्याध चैव गात्रेषु छिन्नधन्वानमाशुकैः सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः अभ्यधावत ताम् देवीम् खड्गचर्मधरोऽसुरः सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि आजघानभुजे सव्ये देवीमप्यतिवेगवान् तस्याखड्गो भुजम् प्राप्य पफालनृपनन्दन ततो जग्राहशूलम् स कोपादरुणलोचनः चिक्षेप च ततस्तत्तु भद्रकाल्याम् महासुरः जाज्वल्यमानम् तेजोभीरविबिम्बमिवाम्बरात् दृष्ट्वा तदापतम् शूलम् देवी शूलममुञ्चत तच्छूलम् शतधातेन नीतम् स च महासुरः हते तस्मिन्महावीर्ये महिषस्य चमूपतौ आजगामगजारूढश्चामरस्त्रिदशार्दनः सोऽपि शक्तिम् मुमोचाथ देव्यास्तामम्बिकादृतम् हुङ्काराभिहताम् भूमौ पातयामास निष्प्रभाम् भग्नाम् शक्तिम् निपतिताम् दृष्ट्वा क्रोधसमन्वितः चिक्षेप चामरशूलम् बाणैस्तदपि साक्षिणत् ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः बाहुयुद्धेन युधे तेनोच्चैस्त्रिदशारिणा युध्यमानो ततस्तौ तु तस्मान्नागान्महीम् गतौ युजुधातेति संरब्धो प्रहारैरतिदारुणैः ततो वेगात्खमुत्पत्य निपत्य च मृगारिणा करप्रहारेण शिरश्चामरस्य पृथक् कृतम् उदग्रश्चरणे देव्या शिलावृक्षादिभिर्हतः दन्तमुष्टितलैश्चैव करालश्च निपातितः देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् बाष्कलम् भिन्दिपालेन बाणैस्ताम्रम् तथान्धकम् उग्रास्यमुग्रवीर्यम् च तथैव च महाहनुम् त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी बिडालस्यासि नाकायात् पातयामास वै शिरः दुर्धरम् दुर्मुखम् चोभौ शरैर्निन्येयमक्षयम् एवम् संक्षीयमाणे तु स्वसैन्ये महिषासुरः माहिषेण स्वरूपेण त्रासयामास तान् गणान् कांश्चित्तुण्डप्रहारेण कुरक्षेपैस्तथा परान् लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्याम् च विदारितान् वेगेन कांश्चिदपरान्नादेन भ्रमणेन च निःश्वासपवनेनान्यान् पातयामास भूतले निपात्य प्रमथानेकमभ्यधावतसोऽसुरः सिंहम् हन्तुम् महादेव्या कोपम् चक्रे ततोऽम्बिका सोऽपि कोपान्महावीर्यः कुरक्षुण्णमहीतलः शृङ्गाभ्याम् पर्वतानुश्चांश्चिक्षेप च ननाद च वेगभ्रमणविक्षुण्णामहीतस्य व्यशीर्यत लाङ्गूलेनाहतश्चाभ्यः प्लावयामास सर्वतः भूतशृङ्गविभिन्नाश्च खण्डम् खण्डम् ययुर्धनाः श्वासानिलास्ताः शतशो निपेतुर्नभसोचलाः इति क्रोधसमाध्मातमापतन्तम् महासुरम् दृष्ट्वा सा चण्डिका कोपम् तत्वधाय तदाकरोत् सा क्षिप्त्वा तस्य वैपाशम् तम् बबन्ध महासुरम् तत्याजमाहिषम् रूपम् सोऽपि बद्धो महामृधे ततः सिंहो भवत्सद्यो यावत्तस्याम्बिका शिरः छिनत्ति तावत् पुरुषः खड्गपानिरदृश्यत तत एवाशु पुरुषम् देवी चिच्छेदसायकैः तम् खड्गचर्मणा सार्धम् ततः सोभोन्महागजः करेण च महासिंहम् तम् चकर्ष जगर्ज च कर्षतस्तु करम् देवी खड्गेन निरकृन्तत ततो महासुरो भूयो माहिशम् वपुरास्थितः तथैव क्षोभयामास त्रैलोक्यम् सचराचरम् ततः क्रुद्धा जगन्माता चण्डिकापाणमुत्तमम् अपौ पुनः पुनश्चैव जहासारुणलोचना ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः विषाणाभ्याम् च चिक्षेप चण्डिकाम् प्रतिभूधरान् सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करैः उवाच तम् मदोद्धूतमुखरागाकुलाक्षरम् देव्युवाच गर्जगर्जक्षणम् मूढमधुयावत् पिबाम्यहम् मया त्वयहते त्रैव गर्जिष्यन्त्याशु देवताः ऋषिरुवाच एवमुक्त्वा समुत्पत्य सारूढातम् महासुरम् पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः तया महासिना देव्या शिरश्चित्त्वा निपातितः ततो हाहाकृतम् सर्वम् दैत्यसैन्यम् न नाशतत् प्रहर्षम् च परम् जग्मुः सकला देवतागणाः तुष्टुवस्ताम् सुरा देवीम् सह दिव्यैर्महर्षिभिः जगुर्गन्धर्वपतयो नरुतश्चाप्सरोगणाः ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम तृतीयोऽध्यायः।